आरुष्येति पृष्ठस्य दासेरा मातरा विविश सप्तवाणीः परीक्षिता पितरा सञ्चरेते प्रसस्राते दीर्घमायुः प्रजक्षे जिभक्षसो धेनवो विष्णो अश्वा देवीरातस्थो मधु मद्वहन्ति ऋतस्य त्वा सदा शिक्षेमयम् तम् पर्येकाचरति वर्तलिङ्गौः आसीमरोगः सुयमा भवन्ति पतिश्चिकित्वा राजिविद्राजीनाम् प्रणीलपृष्ठो अधसस्य धासेस्ता वासयत्पुरुधप्राजीकः महित्वाष्टमूर्जयन्ति रजर्यंश्च भूयमानम् वहतो वहन्ति यङ्गेभिर्दिर्युदानः सधस्तनेकाविवरोदसी आविवेश जानन्ति विष्णो अरुणस्य सेव मुदभ्रध्नस्य सासनेरणन्ति योरुचः सुरुचो रोच मालायिलायेषाम् कन्या माही नागीः उतो पितृभ्याम् प्रविदानुघोषम् महो महद्भ्यामनयन्त सूषम् वृक्षाहयत्र परिधानभक्तोरनस्वम् धाम जरितुर्वपक्ष अध्वर्युभिः पञ्चभिः सप्तभिप्रायम् रक्षन्ते निहितम् पदम् मे राञ्चो मदम् चुक्षणो अजुर्या देवा देवानामनि व्रतागुः दैव्याहोदाराप्रथमान्निरञ्जे सप्तवृक्षासः स्वधया मदन्ति ऋतम् संसन्दृतमित्तासुरणव्रतम् रतपादीध्यानाः ृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्ताय रश्मयः सुयामाः देवाहोदर्मन्त्रतरश्चिहित्वान्नो देवान् रोदसीयेह वक्षि वृक्षप्रायजोद्रविनः सुवाचश्रुकेतव कुशसो रेवदूषुः उदोचिदग्ने महिना पृथिव्याः कृतम् चिरेण सन्दम् महेदसस्य इलामग्ने पुरुदम् संसलिङ्गो शश्वत्तमम् भवमानाय साध स्यान्नः सूनुस्तनाजो विजावाग्ने सा ते सुमतिर्भूत्वस्मे